प्रार्थना श्लोकम् उक्त्वा वयं वर्गस्य आरम्भं कुर्मः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. सर्वेषां स्वागतं संस्कृतसम्भाषणनूतनवर्गस्य. नूतनवर्गः प्रचलति अद्य. वर्गसङ्ख्या त्रयोविंशतिः, 23rd क्लास्, जून् मासस्य चतुर्दशः दिनाङ्कः, 14th डे आफ् जून् मासः. अद्य प्रवर्तमानविषयः अस्ति पुनस्मारणं प्रप्रथमम् अव्ययपदानि तः पर्यन्तम् अद्य आरभ्य अद्यतन ह्यस्तन स्वस्तन पुरातन इदानीन्तन गत आगामि स्व स्म अव्यय एतान् विषयम् अस्मिन् वर्गे वयं पठिष्यामः. प्रथमं पुनस्मारणं. गतवर्गे वयं सहयोगे तृतीया इत्यस्मिन् विषये वयं दृष्टवन्तः, यथा जनकः पुत्रेण सह आपणं गच्छति, रामः सीतया सह लक्ष्मणेन सह च वनं गच्छति, जननी पुत्र्या सह मन्दिरं गच्छति, पिता मात्रा सह सम्भाषणं करोति. एवं भवति सहयोगे तृतीया. अनन्तरम् अव्ययपदानि वयम् आरब्धं कृतवन्तः गतवर्गे. च एवम् इति अव्ययपदद्वयं वयं दृष्टवन्तः. इदानीम् अग्रे गच्छामः. कानिचन अव्ययपदानि अत्र सन्ति, तद् तानि वयम् अवगच्छामः अस्मिन् वर्गे. सो च एव, ऐ थिङ्क् वि हव् डन् ओन्ली च एव, वि हव् फिनिश्ड्. नो
नो वि हेवेण्ट्
फिनिश्ड् एव वा?
यस् 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 सारि यस् वि हव्
ओके. स नमस्कारः, कः वदति?
जगदीश्.
जगदीश् महोदय, स्वागतं स्वागतं, नमस्कारः. थेङ्क् यू
थेङ्क्
यू. सो च एव इति अव्ययद्वयं वयं दृष्टवन्तः. इदानीम् अपि अपि वयं पठामः. जया भगिनी, भवती एव पठतु.
आं महोदय. अपि आल्सो. एतानि वाक्यानि पठन्तु अवगच्छन्तु च. रामः वनं गच्छति, लक्ष्मणः अपि वनं गच्छति, लक्ष्मणः अपि वनं गच्छति, बालकः क्रीडति, बालिका अपि, रामः फलं खादति, कृष्णः अपि फलं खादति, सीता कथां पठति, सीता कवितां अपि पठति, रमा गृहपाठं लिखति, पठति अपि. अव्ययम् अपि इति अव्ययस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः.
उत्तमं, सम्यक् 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 उच्चारयति.
धन्यवादः महोदय,
धन्यवादः. धन्यवादः भगिनि. सो अपि, दिस् इस् द थर्ड् अव्ययपदम्. अपि अपि इस् आल्सो. रामः वनं गच्छति, लक्ष्मणः अपि. तत्र लक्ष्मणः अपि इति वयं वदामः चेत् तत्र व्याकरणदोषः नास्ति. स्वागतं रविकुमार शुक्ला महोदय.
धन्यवादः रविकुमार शुक्ला.
सो तत्र दोषः नास्ति. लक्ष्मणः अपि वनं गच्छति इति यदा वयं वदामः तत्रापि दोषः नास्ति. किमर्थम् एवं भवति? तत्र पश्यतु, रामः एकः कर्ता कर्ता अस्ति, लक्ष्मणः अन्यत् कर्ता अस्ति. परन्तु कार्यं कार्यं किम् अत्र? रामं किं कार्यं करोति, लक्ष्मणः किं कार्यं करोति? रामः वनं गच्छति, लक्ष्मणः अपि वनं गच्छति. सो कार्यं समानमेव, कर्तृपदं भिन्नः भवति, परन्तु भिन्नं भवति, परन्तु कार्यं समानमेव. यत्र कार्यं समानं तत्र पूर्ववाक्ये पूर्णतया वाक्यं यदा वयं वदामः रामः वनं गच्छति एवम्, अनन्तरं लक्ष्मणः अपि पर्याप्तं, वाक्यं तत्र पूर्णमस्ति. लक्ष्मणः अपि इति वाक्यं पूर्णमस्ति. पुनः वनं गच्छति इति न वक्तव्यम्. वदति चेत् नो दोषः, न वदति चेत् अपि नो दोषः. अत्र व्याकरणदोषः नास्ति. अनन्तरं पश्यतु, बालकः क्रीडति, समानमेव. बालिका अपि, बालकः बालिका, कर्तृपदं द्वयमस्ति परन्तु समानक्रिया भवति, क्रीडति क्रीडति. सो द फस्ट् सेण्टेन्स् शुड् बि फुल् इन् फुल्. बालकः क्रीडति, बालिका अपि, दट् मीन्स् बालिका अपि क्रीडति इति अध्याहारः अस्ति, दट् इस् अण्डर्स्टुड्. अनन्तरं पश्यतु, रामः फलं खादति, कृष्णः अपि फलं खादति. कर्तृपदं द्वयमस्ति परन्तु कार्यं समानमेव, खादनक्रिया, फलं खादति, फलं खादति. अन्यत् वाक्यं पश्यतु, सीता कथां पठति, सीता कविताम् अपि पठति. नौ कर्तृपदं समानं परन्तु कर्मपदं भिन्नम् अस्ति. प्रथमवाक्ये कथाम् इति कर्तृप कर्मपदम् अस्ति, कथां. सीता रीड्स् अ स्टोरि. स्वागतं प्रिया भगिनी, नमस्कारः. सो कर्ता सीता एव. सीता कर्ता एव, परन्तु कर्मपदं भिन्नम् अस्ति. कथां पठति, प्रथमं कथां पठति, शि रीड्स् अ स्टोरि, अण्ड् देन् शि रीड्स् पोयट्रि आल्सो. सो देर् द इण्टर्नेशन् चेञ्जस् फ्रोम् द कर्तृपदं टु द कर्मपदं, because there is only one karta, Sita. Katam patati, kavitam patati. So there also we can simply say, Sita katam patati, kavitam api. It is a full sentence. These two sentences can be made into one by combining them. Sita katam patati, kavitam api. That means Sita kavitam api patati. It is understood there. The last sentence you pashyatu, Rama grihapatam likati patati api. First she does the homework, then she reads the homework. So Rama grihapatam likati patati api. So yatra कर्ता द्वयम् अस्ति, कर्ता भिन्नः अस्ति, परन्तु कार्यं समानम् एवं भवति. रामः वनं गच्छति, लक्ष्मणः अपि. यत्र कर्ता एकः एव कर्ता, सीता रमा, अत्र कर्ता एकः एव, एका एव सीता रमा, परन्तु कार्यं भिन्नमस्ति, कार्यद्वयमस्ति. कथां पठति, कवितां पठति, गृहपाठं लिखति, पठति अपि. सो दट् इस् दट्स् हौ अपि इस् सो एवं भवति अपि इत्यस्य अव्ययस्य प्रयोगः एवं भवति. अत्र सन्देहः अस्ति वा? सन्देहः अस्ति चेत् कृपया पृच्छतु. आल्सो इति वदामः, आङ्ग्लभाषया मध्ये भाषामध्ये अपि अस्ति आल्सो. रामा गोस् टु फारेस्ट्, लक्ष्मणा लक्ष्मणा आल्सो, दट् मीन्स् लक्ष्मणा आल्सो गोस् टु द फारेस्ट्. ओके, सन्देहः अस्ति वा? नो चेत् अग्रे गच्छामः. ओके
महोदय,
नेक्स्ट् वन्, यस्,
इन् नम्बर् टु एव फिफ्त् वन्, भगिनी संस्कृतेन सम्भाषणम् एव करोति. Here this Eva should be संस्कृतेन एव सम्भाषणं करोति, इस् गिविङ्ग् ए डिफ्रेण्ट् मीनिङ्ग् टु भगिनी संस्कृतेन सम्भाषणम् एव करोति.
You are right. See, Eva is निषेधात्मक पदं, that is, it excludes. It gives a stress and importance to the immediately preceding pada. First pashyatu, शिशुः क्षीरम् एव पिबति. द चैल्ड् ड्रिङ्क्स् ओन्लि मिल्क्, ड्रिङ्क्स् मिल्क् ओन्लि. देन् बालकः एव दुग्धम् इच्छति, देर् बालकः दुग्धम् इच्छति, पिता न. सो देर् कर्ता इस् एक्स्क्लूडेड्. फस्ट् वन् कर्मपदम् इस् एक्स्क्लूडेड् because it is placed juxtaposed to karma padam kshiram. So anyat anyam shishuh na pibati, shishuh kshiram eva pibati. Then balaka eva dugdham ichati, pita na. There the father does not wish to drink milk only. The boy, balakaha amra palam eva kaditum ichati anyat na. Now, again, there is a class, jatihi iti asti. Amrapalam is a, it's a food item. There, Eva excludes any other food substance. Only amrapalam, balakaha amrapalam, Eva kaditum ichati. So, there, what we have to understand, wherever you place Eva, next to any pada or shabda, then that particular pada or shabda is given weightage, importance, and it excludes others. Atra pashyatu bhagini samskrutena eva sambhashanam karoti. So bhagini speaks only through samskritam, only through samskritam. Bhagini samskrutena sambhashanam eva karoti. Now bhagini is capable of only speaking in Sanskritam, not writing in Sanskritam or any other activity in Sanskritam. So this is nishedatmaka padam, that is, it excludes. Eva is only, by saying only, and we can place it anywhere, next to the karta, next to the karma padam, even next to the kriya padam. अत्र उदाहरणार्थम् अहं वदामि, रामः वनं गच्छति एव, वनं गच्छति एव. नौ Ramaha goes only to the forest, not anywhere, anywhere else. Ramaha is not going to Apanam. Kutraha Pratidhani Agachati. So, this is, it excludes. So, we will have to be very careful. Suppose you want to give some stress to the karta, you can place it next to the karta. Suppose you want to give stress to the karma padam, you can place it next to the karma padam. Suppose you want to give aham degali nagaram eva gacchami, then it means I go only to Delhi. I go only to Delhi, and not anywhere else. Mysur Nagaram Eva Gacchami. So wherever you place that Eva, immediately the preceding Pada or Shabdaha is given some stress and importance. So Api is different. Api is also. Api is also. Avagacchati va, Mohode?
Aam, Mohode.
Idanim Iti. Iti, Iti, Pashyamaha. धनलक्ष्मी भगिनी
आम महोदय
पठतु भगिनी कृपया
इति एतत् संभाषणम् उच्चैः पठन्तु अध्यापकः प्रभाकर किं सुधाकरः पाठम् अलिखत् प्रभाकरः अद्य अहं लिखामि इति सः उक्तवान् अध्यापकः किं राधिका अद्य उद्घाटनाय गमिष्यति प्रभाकरः गमिष्यामि इति सा उक्तवती अध्यापकः किं भवान् सुपाटिकाम् अद्य क्रेषयति श्वः वा प्रभाकरः अद्य एव क्रेष्यामि इति चिन्तयामि
एतत् पर्याप्तम् अहं किञ्चित् विवरणं धन्यवादः भगिनि ऐ विल् अगैन् काल् यु एतानि वाक्यानि उच्चैः पठन्तु ऐ विल् अगैन् काल् यु सो बिफोर् देट् लेट् अस् सी इति नो दस् दस् सो वेनेवर् सम्बडि हियर् अद्य अत्र सम्भाषणं पश्यतु अध्यापकः पृच्छति अध्यापकः प्रभाकरं पृच्छति परन्तु प्रभाकरं किं पृच्छति सुधाकरस्य विषये पृच्छति सुधाकरः पाठम् अलिखत् वा सुधाकरः इस् द थर्ड् पर्सन् अबौट् सुधाकरः हि इस् आस्किङ्ग् द टीचर् इस् आस्किङ्ग् प्रभाकरः सो प्रभाकरः अत्र उत्तरं ददाति सुधाकरस्य कृते Sudhakarasya Krite, he is representing Sudhakaraka and he is giving the answer. Katam he can give, Katam Uttaram Dadadi, Adya Aham Likami, Atra Aham Iti Patam Kam Suchayati, Dhanashri Bhaini Vadatu, this Aham Patam, is relating to whom?
Prabhakar.
No. Tra, Krupaya Pashyatu, Krupaya Pashyatu, Savadhanena Vadantu, Chintayitva Vadantu. Prabhakar is answering on behalf of Sudhakar. So, Adhya Agam, because Adhya Pakaka, what he is asking Prabhakar,
he is referring to Sudhakar. Aham is Sudhakar.
Good. Adya Aham Likami. So Sudhakar has informed Prabhakar, today I write the lesson. I write the homework. So a lesson or homework, some information he has given Prabhakar, that is known to the teacher. That is why the teacher is asking, or Sudhakar is not there. When the teacher is asking Prabhakar, Sudhakar is not there, So Prabhakar is answering on behalf of Sudhakar. Katam uttaram dadati, how he answers, adya aham likami iti. Thus Sudhakaraha uktavan. Saha iti Sudhakaraha. Again. Saha is Sudhakaraha. Adya aham likami iti saha uktavan. So whenever you are representing somebody or somebody's vachanam, bhavan or bhavati uttara rupena dadati che, then tatra das iti bhavati, iti iti bhavati. So whenever somebody's answer as it is, yatavat, as it is, if you are referring, then immediately after that, succeeding that statement, you have to put iti. Iti saha uktavan. Now again, adhyapakaha is asking Prabhakaraha about Radhika. Radhika adhya udghatanaya gamishyati. Kim? She must have told already the teacher on a particular day for an inaugural function, I am going. I will be going. So he is now ensuring whether Radhika has gone or not, gone to represent that inaugural function or not. So he is asking, Kim Radhika Adhya Udghatanaya Gamishyati. This Kim can be placed in the front or at the end. Radhika Adhya Udghatanaya Gamishyati Kim. And Kim Va, we have already seen. Kim Va Samana Prayoga. Radhika Adhya Udghatanaya Gamishyati Va. Or Radhika Adhya Udghatanaya Gamishyati Kim. Samana Meva. So Prabhakaraha Vadati Gamishyami. Prabhakaraha Vadati. So that is inverted commas. Within quotes, Gamishyami iti sa uktavati. Gamishyami iti Radhika uktavati. So immediately after the statement or quote, iti, iti bhavati. Then the third one, he is directly asking Prabhakaraha. Kim bhavan kapatikam adhya kreshyati swahava. Are you buying the almira or biro today or tomorrow? Prabhakar vadati, adhya eva kreshyami. Adhya eva kreshyami. Today. Suppose he finishes today only. Adhya eva kreshyami. I buy today only. There, if you end the statement, iti na bhavati. Parantu, atra kimasti adhya eva kreshyami, iti chintayami. This I am thinking. I think today only I will buy. Today only I buy. So adhya eva kreshyami is within the quote. Iti chintayami. Avagachati va. Thus, when you are referring somebody's statement or somebody's answer or somebody's vachanam or from some book or granthaka, angila madhya asti kila, quote unquote. Suppose a person, I am making a speech on independence, India's independence, or India's national language. Then I want to bring in Dr. Ambedkar's statement. Katam aham anayami, atra sambhashane katam aham anayami. Rashtra bhashayaha vishaye, Dr. Ambedkaraha vadati quote. We'll say Angila Bhashya, we'll say quote. Rashtra Samskritam Eva Raja Bhasha Bhavet unquote. So quote unquote. You will refer to the person because that is the statement given by Dr. Ambedkar which you are bringing in your speech. So you will have to say quote unquote. Then after that, whatever statement is being made, that belongs to you, not Ambedkar. So evam bhavati. So iti vishaye kinchana binna prayoga asti. Etani vakyani padantu bhagini.
एतानि वाक्यानि उच्चैः पठन्तु. संस्कृतम् एव राजभाषा भवेत् इति डाक्टर् अम्बेड्करः अचिन्त्यत्. बालाः एव राष्ट्रस्य सम्पत्तिः इति प्रधानमन्त्री पुनः पुनः कथयति. परिश्रमेण एव साफल्यं प्राप्यते इति सर्वे कथयन्ति. Can you please help me?
Sangachadvam. Samvadadvam. Next one is Samvadadvam.
Samvadadvam. Iti Rigvedasya Sandeshaha.
Uttama. I will give you the meaning for all the sentences. Dhanyavada Beni. So, Dr. Ambedkar राष्ट्रभाषायाः विषये चिन्तयत् चिन्तितवान् आर् अचिन्तयत् कथम् अचिन्तयत् स्वागतं विद्याबेनि नमस्कारः
स्वागतं महोदय
नमस्कारः सो संस्कृतम् एव राजभाषा भवेत् इति डाक्टर् अम्बेड्करः अचिन्तयत् So this is a statement made by Dr. Ambedkar regarding the national language, national language policy. He has made a statement. Samskritam eva rajabhasha bhavet. So that is a statement made by Dr. Ambedkar. So whenever you are quoting other person's statements or vachanam, prasiddha asti Dr. Ambedkar aga, when you are quoting his statement, you will have to quote it within quotation marks. Samskritam eva rajabhasha bhavet iti. Iti Dr. Ambedkaraka achintayat. So that is a statement, quotation or statement made by Dr. Ambedkaraka. Then second one, balaha eva rashtrasya sampattihi. Balaha eva rashtrasya sampattihi. Children are the nation's asset, nation's wealth. Iti Pradhana Mantri Punak Punaka Katayati. So this is the statement given by the Prime Minister. Again and again he is quoting this. So Balaha Eva Rashtrasya Sampattihi is within the quotation mark. Iti Bhavati. Parishramena Eva Safalyam Prapyate. That is, with hard efforts, with the efforts only, we can achieve success. Safalyam prapyate. Iti sarve katayanti. Sarve janaha katayanti. Sankachadvam sambadadvam. Unity in action and unity in, unity in speech. Unity in speech or talk,
speech.
Unity in speech and action. There must be unity. Iti Rigvedasya Sandeshaka Sanghajatvam. Sanghacha, it is Samuchayaka. Dvam. Sambadadvam. So unity in speech and action. There should be unity in speech and action. Whatever we say, we should be in a position to perform it. So Rigvedasya Sandeshaka. This is the message given by Rigvedaka. So it is also within the quotation mark, then immediately after Iti Bhavati. So Avadeyam. Yada Kasyapi Anyasya Janasya Granthasya Va Katanam Vachanam Sandeshaka Ityadinam Uddharanam Kriyate तदा तेषाम् अन्ते इति अव्ययस्य प्रयोगः भवति. वाट् इस् द मीनिङ्ग्? सपोज् यु आर् कोटिङ्ग् सम्बडीस् स्टेट्मेण्ट् आर् फ्रम् एनि बुक् आर् फ्रम् ग्रन्थः आर् फ्रम् वेदा कथनं वचनं sandeshah message or their quotes if you are uddharanam means you are bringing somewhere from the resources somewhere from that you are collecting the quotes and using it in a different place uddharanam kriyate kriyate tada tesham kesham kathanam vachanam sandesham kathananam vachananam sandeshanam ante iti avyasya prayogah bhavati so quotation mark then after ending the quotation mark iti thus told thus ambedkar had told so iti avyayat purvam vachanam kathanam va etavat uchyate so iti avyayat purvam vachanam va kathanam va quotation va as it is we have no right to change it whether we like it or not we agree or not we have to when we are bringing in somebody's statement or quotation you have no right to change that is why we say quote unquote then if you are differing with that statement you can make your observation but yatavat is the what is the meaning yatavat you cannot change anything there as it is literally in letter you have to quote यदा अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत् सो अद्य एव मिलामि इति नागेन्द्रः उक्तवान् दट् यु आर् उद्धरति सो अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत् नागेन्द्रः टोल् सो इति विषये अवगच्छति किल सर्वे अवगच्छन्ति किल अत्र सन्देहः अस्ति चेत् कृपया पृच्छतु
In the first sentence, tatha tesham, what does that mean?
Yada tada, yada atra asti, the next class will be in the copulative avyaya padani. There are certain, what we can say, samyogena bhavati, yada tada, yatra tatra, yata tata, यद्यपि तथापि यदि तर्हि यावत् तावत् देर् आर् सिक्स् कोपुलेटिव् मीन्स् जायिण्ट् दे आल्वेस् जायिण्ट्लि कम् इन् अ स्टेट्मेण्ट् आर् इन् अ सेण्टेन्स् दट् मीन्स् सपोस् इफ् देर् इस् अ स्टेट्मेण्ट् आर् वाक्यं वेर् यु हव् यदा इति पदस्य प्रयोगं करोति देन् इन् दट् सेम् सेण्टेन्स् तदा शुड् बि देर् This is the niyamah. Yada kasyapi anyasya. When? Or if so, then. When, then? Yada kasyapi anyasya janasya granthasya va katanam vachanam sandeshaya ityadi naam. Plural asti. Ityadi naam. Uddharanam kriyate. Tada tesha. Then. When? Then. When? Then.
Thank you.
Tesham. Tesham ityukte. कथनानां वचनानां सन्देशानाम् अन्ते इति अव्ययस्य प्रयोगः भवति अवगच्छति वा भगिनि
धन्यवादः
एनी अदर् डौट्
कथनं वचनं वाट्स् द डिफ्रेन्स् बोथ् आर् द सेम्
सेम् इट्स् ओन्ली फार् एम्फसिस् पर्पस् वि पुट् दि सिनोनिम्स् टुगेदर् यु नो सो कथनं वचनं समानमेव ओके देन् वि विल् टेक् अप् द नेक्स्ट् वन् अतः इदानीं सुन्दर् महोदय
आं महोदय
भवान् एव
अतः देर् फोर् पश्यन्ति उच्चैः पठन्तु च रात्रिः अभवत् अतः चन्द्रः आकाशे स्थितः
सो देर् यु सी दि पश्यन्तु देर् चित्रमस्ति रात्रिः अस्ति आकाशे चन्द्रः अस्ति सो रात्रिः अभवत् अतः चन्द्रः आकाशे उदितः. नेक्स्ट् सुन्दरमहोदय. सुन्दरमहोदय,
यस् ऐ केन् हियर् यु अगेन्. ओके ऐ कण्टिन्यू. ओके
या प्लीस्.
यानं शीघ्रं प्राप्तम् अतः अहं शीघ्रम् आगतः. विद्युत् नास्ति अतः व्यजन् न भ्रम. अतः विषयं सम्यक् जानाति. अस्य मूल्यम् अधिकम् अतः अहं न क्रीणामि.
एकनिमिषं, धन्यवादः महोदय. अत्र अनुज् महोदय सूचितवान्, चाट् मध्ये सूचितवान्, ऐ स्टाण्ड् करेक्टेड्. कथनम् ईस् नेरेशन्, कथनम् ईस् नेरेशन्, दट् मीन्स् somebody's or about something when you are narrating. Katanam katayati, that about an incident or story, about a story you are narrating. So vachanam is direct sambhashanam, so kinchit bhinnam asti katanam vachanam. Okay, dhanyavada Anuj mohodaya. So katanam atra narration iti bhavati, vachanam is सम्भाषणम् आर् स्पीच् इति भवति. सो अत्र पश्यतु, यानं शीघ्रं प्राप्तम् अतः अहं शीघ्रम् आगतः. द प्राप्तम् आगतः यु लीव् इट् बिकास् अबौट् दिस् ग्रमटिकल् आस्पेक्ट् वि हव् नाट् स्टडीड्. अहं किञ्चित् परिवर्तनं करोमि. यानं शीघ्रं प्राप्तवान् अतः अहं शीघ्रम् आगतवान्.
नमस्कारः कृष्ण.
नमस्कारः
महोदय,
स्वागतं. स्वागतं, चिन्ता मास्तु, चिन्ता मास्तु. सो यानं शीघ्रं प्राप्तवान् सम्बडि, कोऽपि यानं शीघ्रं प्राप्तवान् अतः, नो अहमेव, सो अहं यानं शीघ्रं प्राप्तवान् अतः अहं शीघ्रम् आगतवान्. देन् विद्युत् नास्ति, इस् नो करेण्ट्, अतः व्यजनं न भ्रमति, व्यजनं न चलति. सः सम्यक् पठितवान् अतः विषयं सम्यक् जानाति. हि हेस् रेड् वेल् सो हि नोस् अबौट् इट्. अस्य मूल्यम् अधिकम् अतः अहं न क्रीणामि. अस्य मूल्यम् अधिकम् अतः अहं न क्रीणामि. अत्र वाक्ये एतादृशानि वाक्यानि कथं भवन्ति, अत्र विषयः कः इत्युक्ते, अत्र पश्यतु, आगमनम् इस् अ क्रिया, इस् इट् नाट्? आगमनं, सो आगमनं, सो कार्यं, वाट् इस् अ कार्यं देर्? आगमनम् इस् अ कार्यं, कमिङ्ग् इस् अ कार्यं. शीघ्रं शीघ्रं यानप्राप्तिः इस् कारणम्, इस् अ रीसन्. सो एक्षन् रीसन्, देर् आर् टु थिङ्ग्स्, वन् इस् अ रीसन् अण्ड् सेकेण्ड् वन् इस् बिकास् आफ् दट् रीसन्, सब्सिक्वेण्ट् टु दट् रीसन् सम्थिङ्ग् इस् हेपनिङ्ग्, दट् इस् क्रिया. सो कार्यं, सो यानं शीघ्रं प्राप्तवान् इस् अ कारणं. वाट् इस् द रीसन्? यानं शीघ्रं प्राप्तवान्, ऐ गाट् द बस् एर्लि, सो ऐ केम् एर्लि, आर् देट् इस् देट् फोर्. सो कार्यं, कारणं कार्यं, यानं शीघ्रं प्राप्तम् इस् कारणं, शीघ्रम् आगतवान् इस् कार्यं, मम कार्यम् अत्र अस्ति. सो आगमनं कार्यं, कुत्रचित् ध्वनिः, प्रतिध्वनिः आगच्छति. सो कार्यम् आगमनम् इस् कार्यं, शीघ्रं यानं प्राप्तं, यानप्राप्तिः इस् कारणम्, एतादृशस्य, दट् इस् एतादृशस्य, एतादृश इस् अगैन् अव्ययपदं, विच् विल् बि सीङ्ग् लेट्, एतादृश, कीदृश, तादृश, ईदृश, लैक् दीस्, लैक् दोस्, लैक् दीस्, सारि, एतादृशस्य, लैक् दीस्, वाक्यद्वयस्य प्रयोगः, वाक्यद्वयं किं, कारणवाक्यं, कार्यवाक्यं, वाक्यद्वयस्य प्रयोगः भवति तदा यत्र कारणवाक्यं पूर्वम् उच्यते. सो वट् इस् द नियमः, कारणकार्यम् इस् द फस्ट् नियम. सेकेण्ड् नियमः इस् कारणं प्रथमम् उच्यते, कारणं प्रथमम् उच्यते, अनन्तरं कार्यवाक्यम् उच्यते. तत्र देन् वेर् वि विल् प्लेस्, अतः वि विल् प्लेस् अतः अलाङ्ग् वित् द कार्यवाक्यं. कारणवाक्यस्य पूर्णं भवति, यानं शीघ्रं प्राप्तं, देन् इमिडियेट्लि अतः शीघ्रम् आगतवान् इति अव्ययम् अव्ययपदं योज्यते. सो कार्यवाक्ये अतः इति अव्ययपदं योज्यते, कार्यवाक्येन एव अतः भवति. सो अवगच्छन्ति किल, कारणवाक्यं कार्यवाक्यं, देर् इस् अ रीसन् and because of the reason something is happening. So ataha shigram agatavan is karya vakyam. Atar prashito udaharanartham, adya shaityam adigam asti, today it's very cold, ataha ushna jalam pashyami, I'll drink hot water, hot water. अद्य शैत्यम् अधिकम् अस्ति, अतः उष्णजलं पास्यामि. अन्यत् उदाहरणम् अहं ददामि, अद्य विद्यालयस्य विरामः भवति, विरामः अस्ति, अद्य विद्यालयस्य विरामः अस्ति, अतः मम पुत्राः गृहे सन्ति, आर् गृहे भवन्ति. Since there is a holiday for the school, my children are at home. So first karanam vaktavyam, then the second karyavakyam. So along with the karyavakyam, adau karyavakyasya adau ataha iti bhavati. Avagacchati va, sandeha asti chet kripaya prachatu.
आं महोदय.
सो यतः, नेक्स्ट् इस् यतः, बिकास् दिस् इस् जस्ट् आपोसिट् आफ् अतः. यतः इस् जस्ट् आपोसिट् आफ् यत् अतः कथं भवति इति इदानीं पश्यामः. कमला भगिनी.
आं महोदय. यतः बिकास् प्रकोष्ठे अन्धकारः नास्ति, यतः दीपा ज्वलन्ति. उच्चैः पठन्तु जानन्तु च, एषा बालिका सस्ता, यतः एषा प्रतिदिनं भ्रमणं करोति. दीपः न ज्वलति, यतः विद्युत् नास्ति. अहम् अभ्यासं करोमि, यतः सम्यक् संस्कृतं वक्तुम् इच्छामि. वयम् एव परिवेषणं कुर्मः, यतः अद्य अस्माकं पर्यायः अस्ति.
सो अत्र वाक्ये वाक्येषु पश्यन्तु, एषा बालिका स्वस्था, शी इस् हेल्ति, दिस् गर्ल् इस् हेल्ति, बिकास् एषा प्रतिदिनं भ्रमणं करोति. सो फस्ट् the karyavakyam is prathamam utyate, anantaram karanavakyam, what is the reason for her health, for her good health, प्रतिदिनं भ्रमणं करोति इति कारणं प्रतिदिनं भ्रमणं करोति किमर्थं स्वस्था अस्ति बालिका स्वस्था अस्ति बालिका स्वस्था अस्ति यतः एषा प्रतिदिनं भ्रमणं करोति किमर्थं दीपः न ज्वलति अत्र
वाकिङ्ग् रैट्
भ्रमणं सारी वाट् डिड् ऐ से
भ्रमणम्
वाकिङ्ग् वाकिङ्ग् करेक्ट् ऐ डिड् ऐ से ऐ सेड् संथिङ्ग् एल्स् वा ओके भ्रमणम् इस् वाकिङ्ग् प्रतिदिनं भ्रमणं भ्रमणं करोति so walking
I think I lost so, that's why I wanted to check once more
I'm thinking I said yogasanam I was thinking because for us it the udaharanam was yogasanam asmakam
there is also bramari right bramari I think it's that
bramari is what we can say unmataka that is manasi क्लेशः भवति यदा उन्मत्तः भवति सो दे सो भ्रमणम् ईस् डिफ्रेण्ट् भ्रमणम् ईस् वाकिङ्ग् दीपः न ज्वलति दीपः न ज्वलति तत्र कार्यमस्ति दीपस्य ज्वलनं सो दीपः न ज्वलति यतः बिकास् वै बिकास् विद्युत् नास्ति किमर्थं दीपः न ज्वलति दीपः न ज्वलति यतः विद्युत् नास्ति देर् इस् नो करण्ट् सो एलेक्ट्रिक् बल्ब्स् आर् नाट् ग्लोयिङ्ग् अहम् अभ्यासं करोमि दिस् इस् कार्यवाक्यं सो अतः प्रथमं कारणं द्वितीयं कार्यं यतः प्रथमं कार्यं द्वितीयं कारणं वै बिकास् अभ्यासं करोमि ऐ एम् डूयिङ्ग् एक्ससैसस् Why? Because samyak samskrutam vaktum ichami. I want to speak, I wish to speak samskrutam in a good manner, in a good way. Samyak samskrutam vaktum ichami. Vayam eva pariveshanam kurmaha. We will do the serving today. We are doing the serving today. Vayam eva pariveshanam kurmaha. We do serving today. Why? Because अद्य अस्माकं पर्यायः अस्ति दट् इस् डेसिग्नेटेड् जाब् दट् इस् अ डेसिग्नेटेड् वर्क् फार् दट् डे अद्य अस्माकं अवर् वर्क् अवर् डेसिग्नेटेड् वर्क् फार् दट् डे अद्य अस्माकं पर्यायः अस्ति अवधेयम् अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तं कारणवाक्यं च अनन्तरम् अत्र पश्यतु अनन्तरम् ऐ फिनिश्ड् न ऐ हेव् नाट् रिटन् उक्तं कारणवाक्यं च अनन्तरम् उक्तं दट् ऐ हेव् नाट् फिल्ड् बट् कारणवाक्यं च अनन्तरम् एवं भवति संस्कृते दोषः नास्ति यतः इति अव्ययस्य यतः इति अव्ययस्य प्रयोगः यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति सो कारणवाक्येन यतः इति अव्ययस्य प्रयोगः भवति अत्र पूर्वं किम् आसीत् अतः कार्यवाक्येन अतः भवति कारणवाक्येन यतः भवति अहम् उष्णजलं पातुम् इच्छामि यतः अद्य शैत्यम् अधिकम् अस्ति आर् यु एबल् टु फालो द डिफरेन्स् बिट्वीन् अतः यतः अवगच्छन्ति किल सर्वे
आं महोदय
उत्तमम् इदानीं ऐ थिङ्क् वित् दट् द सिक्स् अव्ययपदं वि हव् फिनिश्ड् च एव अपि इति अतः यतः six avyayapadam I am just teaching you what are the avyayapadam how the prayogaka bhavati exercises I will be giving I have already placed it in our gane kripaya grihapatam करोतु.
महोदय जगदीश
I have done it through iScanner app and converted it into a PDF. One by one, there are 8 pages are there. If it is not all right, I will again scan through camera, system phone camera, and I will put it as a individual sheet.
That previous exercise also was like that. The earlier exercise what he had given on 31st. There also some letters were missing.
I started using this iScanner because I was having a cam scanner. Then it became a Chinese app. I came to know. I removed it. Then Indian app or some other app is there. Whether it is there, I was checking in Google Play Store. iScanner was there. I downloaded. It was very easy to handle it. I'll see.
It is better you can take the photos and put it.
I'll do it. Tonight I will do it. All the 8 pages again. Don't feel sorry at all, because what you are saying is correct. What is the purpose of giving the Grihapatha? To enforce or to put it into practice, whatever we have learned. Suppose if it is not readable or decipherable or understandable, then there is no use in giving the Grihapatha. It should be given clearly. So if there are mistakes on my part, I am ready to correct it. Tonight I will capture the images through phone camera and I will put it on the camera. Okay?
Thank you.
So, ataha yataha. With that, we have finished. Now, taha padyantam. What is taha padyantam? Approximately, Angla Bhashaya Vadami, Anuvadanam Ma Vadatu Iti Asti, but for understanding purpose. From till or from to. From to. Taha padyantam. Last one was, fourth one was Kamala Bhavini. Now fifth one is Shubharam Mohde.
Namaskara. Yatvani Vakyani Parsiliyantu. Ekam. Asmakam Bharata Deshaha Vama Bhage Himalayaha दक्षिण भागे कन्या
हिमालय
दक्षिण भागे कन्याकुमारी पर्यंतम व्याप्तम अस्ति. ग्रांट ट्रंप
ट्रंक
रेलया
ग्रांट
ट्रंक
ग्रांट ट्रंक जीती
देहली तह चेत चेन्नई पर्यंतम चलति. ओ आई गॉट इट. ग्रैंड ट्रंक रेल यानम दिल्ली तः चेन्नई पर्यंतम चलति. अस्माकं संस्कृत भाषण शिबिरस्य समारोह कार्यक्रमा पूर्वे दशवादनतः
माध्याह्ने द्विवादन पर्यन्तं भविष्यन्ति. सो अत्र पश्यतु, परिशीलयन्तु. यदा देशस्य सीमा अस्ति. धन्यवादः महोदय. परन्तु द रेस्ट् आल्सो ऐ विल् बि आस्किङ्ग् यु टु रीड्. तिष्ठतु. सो भारतदेशः वामभागे इन् द नार्त् हिमालयतः दक्षिणभागे कन्याकुमारी पर्यन्तं फ्रम् हिमालय टिल् इन् द कन्याकुमारी इन् द सौत् दक्षिणभागे कन्याकुमारी पर्यन्तं व्याप्तः अस्ति. So it, we are talking about the geographical area of a country. So where such a prayogah bhavati. Taha paryantam. Anantaram, Grand Trunk Railyanam, Dehali taha Chennai paryantam chalati. So this is another usage. So from one station to, from one place to another place. वयम् अग्रे पूर्वमेव एकम् अभ्यासं कृतवन्तः. स्मरन्ति वा सर्वे स्मरन्ति वा चेन्नै चेन्नैतः तञ्जावूर् पर्यन्तं गच्छति, तञ्जावूर्तः कुम्भकोणं पर्यन्तं गच्छति, कुम्भकोणतः तिरुचि पर्यन्तं गच्छति, तिरुचितः तञ्जावूर् पर्यन्तं गच्छति, तञ्जावूर्तः मधुरै पर्यन्तं गच्छति, मधुरैतः चेन्नै पुनः आगच्छति. ऐ थिङ्क् आल् आफ़् यु रिमेम्बर् दट् एक्सैस् इन् अ सर्कल् वि हव् मार्क्ड् यु नो तः परि तः. So, Asmakam, this is second one, from one station to one place to another. The third one is Samaya, Samayasya, from this time to this time. So, Asmakam, Samskrita Sambhashana Shibirasya Samaropa Karyakramaka, concluding ceremony, Samaropa Karyakramaka, Purvasme, that is forenoon, Dasavadana Taka, from 10 a.m., Madhyagne, that is afternoon, Dvivadana Paryantam, 2 p.m. Dvivadana Paryantam, Bhavishyanti. So, Avgachandikila, Saka, Taha Paryantam, Taha Paryantam. So, from one place to another place, from one time to another time, or from one, what we can say, Seema. From Seema, Seema is to say, what we can say, Seema is...
Boundary,
correct, exact, excellent. Boundary, so boundary, if you want to describe the boundary, Vama Bhage, Himalaya Asti, Dakshina Bhage, Kanyakumari Asti, East-West, again we can refer, so for... in four directions. So, this is one way. Taka Paryantam is Prayogaha Katam Bhavati. Ilanim Mahode. Shubhara Mahode.
Mahode, just one second here. Vama is north. Vama is also something for sinister, right, in English?
Sinister.
Vama Marga, this is right. Sinister means, so is it, how is it related? I think there are two different meanings, right?
Sinister, sinister, what is the meaning of sinister? Scheming, no,
scheming, yes.
Scheming, Vamanaha is short.
I am asking you is here that confusion lies in because Vama Marga is north. It can also be north direction and also wrong kind of a thing.
No, Vama means also left, no?
Vama Bahi means left side.
Dakshina is right side, Vama is right side, north side.
Vama
both
is bhavati. Left side.
Left side.
Shakti is Vama Bhava.
Correct. Bayanakaka, sinister is Bayanakaka. Scheming Bayanakaka. Or we will go for Vama.
Thank you.
Vama.
I think the black magic or something, what else is there, right? I think it's a bad kind of a thing.
Vamachara is
black magic.
Or even the very first one, perverse.
Perverse is there.
Correct.
Vamana is a dwarf. I'll go this way. I'll put it like this. North.
Mohandai, Vamachara is down. Black magic.
Uttara. Oh, Shameta, Uttara, I should have put Uttara, Uttara Bhage.
So Vama is left, is it? In a sense, if you say left, can you touch left?
I think it is referred with a person. It is on his left side and right side. Then if you have written Vama, then it should have been right side, what we say, that we have to put there, no?
No. What? Why I put it? You know, normally while teaching the directions, we always say, you know, look, stand facing east. Stand facing east, because from the east the sun rises. Stand facing east. Your left hand side is Vama Bhaga. Your right hand side is Dakshina Bhaga. So there, instead of Vama, I can make it as Uttara.
Mahoday.
Okay.
Vamabhaga is correct. Vamabhaga, Dakshinabhaga, we will do our statue of India room. It is Vamabhaga.
Correct, but Atra Kinchit Uttarabhaga Himalaya Taka Dakshinabhaga Kanyakumari Pariyantam Vyaptaka Asti. Right. Okay. Idanim Subhara Mahode. Atra Narayanasya Dinacharya Datta Asti. Dana Dinacharya is daily action routine. Tam Drishtva Vakyani Rachayantu. Now Purna Vakyamva Ataka Taha Paryantam Prayojyava Vakyani Vadantu Mahode.
Narayana
Pradhamam Karami Udaharanatam Anyat Bhavan Karoshi. Narayanaka Shadvadanataka Saptavadana Paryantam Yogasanam Karoti.
Narayana. This is 15, no?
15.
7:15.
Sapada Saptavadana Taha. Sapada Ashtavadana Paryantam.
Sapada Paryantam.
Grihapatam Karoti. Dashavadanataka
Vidyalaya
Dashavadanataka Chaturvadana Paryantam. When you are simply referring a time, you used to say Dashavadane Aham Yekam Karyam Karome. Now from two. So Dashavadanataka Chaturvadana Paryantam. Vidyalaya Astyar Vidyalaya Patam Patati. Vidyalaya Patam Patati. Now from 5 to 6. Panchavadana Taka
Shadvadana Paryantam.
क्रीडां करोति क्रीडा अस्ति सो क्रीडां करोति 6:30 to 7:30 षड्वादनतः सार्धसप्तवादनपर्यन्तम् अध्ययनं करोति दशवादनतः
पञ्चवादनपर्यन्तं
निद्रां करोति निद्रां करोति सो निद्रा इस् अ एक्शन् सो निद्रां करोति सो वेन् यु पुट् इट् करोति इस् सकर्मकः धातु सो वेन् एवर् करोति इस् देर् डेफिनेट्लि इट् टेक्स् अ कर्मपदं सो निद्रा इस् विल् बि वेन् इट् बिकम्स् कर्मपदम् इट् विल् बि इन् द्वितीय निद्रां करोति अध्ययनं करोति क्रीडां करोति ओके अस्तु धन्यवादः महोदय
थेङ्क् यु थेङ्क्
यु समीचीनं सम्यक् इदानीं मीनाक्षी भगिनी
नमस्कारः
भवती द्रष्टुं शक्यते भवत्या द्रष्टुं शक्यते वा
दृश्यते
उत्तमं
सम्यक् दृश्यते
ओके ओके उत्तमं पठतु भगिनि
अत्र मुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति तद् दृष्ट्वा सः कदा कुत्र तिष्ठति इति वदतु जनवरी सेनम् जनवरी मासे एकदिनाङ्कतः सप्तदिनाङ्कपर्यन्तं सेलं नगरे अस्ति
उत्तमम्
अष्टदिनाङ्कः तः त्रयोदशदिनाङ्कः पर्यन्तं त्रिपुरः नगरे अस्ति
तिरुपूर् नगरे अस्ति उत्तमं
तिरुपूर् नगरे अस्ति सः पञ्चदश सप्तदशदिनाङ्कः पर्यन्तं ईरोड् नगरे अस्ति
उत्तमं गुड्
अष्टदिनाङ्कः तः अष्टादशदिनाङ्कः तः विंशतिदिनाङ्कः पर्यन्तं कडलूर् नगरे अस्ति
गुड्
एकविंशतिदिनाङ्कः तः चतुर्विंशति दिनाङ्कपर्यन्तं सासूर् नगरे अस्ति
गुड्
पञ्चदशदिनाङ्कः तः पञ्चविंशतिदिनाङ्कः तः त्रिंशत् दिनाङ्कः पर्यन्तं मधुरै नगरे अस्ति
एक्सलेण्ट् एक्सलेण्ट् see this is my ichcha mukhyamantri nagar tamil nadu madhye never tours but I have given karyakramasya vivarana so selam tirupur erode kadalur sathur madurai mama ichcha asti tatra ichcha purna bhavati so
out of context mahoday I believe the names are being changed in Tamil Nadu.
No. Same name. But the only thing is, Mukhya Mantri Naga never visits Tamil Nadu, you know. he's not visiting because here people are creating a lot of problems for him. So he doesn't visit. Okay.
Mukhya Mantri, Pradhana Mantri.
Oh, right. Sorry. Mukhya Mantri Naga. CM. Okay. CM. Mama Manasi, Pradhana Mantri was there.
Yeah,
he visits. He belongs to Salem, you know, he will visit. Okay. Avadeyam. Atra avagachantu. Yada samayasya arambam apicha antam apicha antam vaktum ichamaha. Samayasya arambam. And then the finishing point. Starting point, finishing point. Tada taha from paryantam to till iti avyayadvayoho prayogaha bhavati. So avyayadvayaha taha paryantam. Kshetrasya vyaptihi va deshasya sima va yetayoho avyayoho prayogena bhaktum shaktumaha. So deshasya vyaptihi or sima, boundaries. So taha paryantam prayujya vayam वक्तुं शक्नुमः यथा हिमालयतः कन्याकुमारी पर्यन्तं भारतम् अस्ति. सो तः पर्यन्तम् अवगच्छन्ति किल. सपोज यु आर् पुटिङ्ग् एन् इटिनररि, यु आर् विसिटिङ्ग् डिफरेण्ट् प्लेसस् आन् अ फारिन् टूर्. यु आर् गोयिङ्ग् टु पेरिस्, फ्रम् देर् जर्मनि, फ्रम् देर् स्वीडन्, देन् नार्वे, देन् coming back again to England, then from England you are coming back to Bharatam, India. So by just imagining an itinerary, you can make taha paryantam. From this date to this date I am in France, something like that. Prayogam kartum shaknumah. Atra sandeha asti va taha paryantam? उत्तमम्. अद्य आरभ्य, फ्रम् टुडे, अद्य आरभ्य. सो दिस् इस् विल् बि डन् बै जगदीश् महोदय. भवान् एव पठतु.
माता पुत्रयोः सम्भाषणं पठतु. माता, पुत्र, भवतः परीक्षा समीपम् आगमिष्यति. अद्य आरम्भं प्रतिदिनं पठतु.
अद्य आरभ्य
प्रतिदिनं पठतु. पुत्रः, अद्य अहं मम मित्रस्य गृहं गच्छामि. श्वः आरभ्य पठिष्यामि अम्बे. माता, भवतः पुत्र, विद्यालये योगासनकक्ष्या कदा आरभ्य भविष्यति? पुत्र, परक्षः आरभ्य भविष्यति. परश्वः आरभ्य भविष्यति. माता, परश्वः मम अवकाशः न भविष्यति. प्रपर्हः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि. पुत्र, अम्बे, मातुलस्य पत्रम् आगतं वा? माता, नैव भोः, अहं परह्य आरभ्य तस्य प्रतीक्षां कृतवती, परन्तु न आगतम्.
उत्तमं, गुड्. सो अद्य आरभ्य, यदा अद्य आरभ्य, फ्रम् टुडे. सो वेन् वि केन् से फ्रम् टुडे, वि आर् आल्सो केपबल् आफ् टेलिङ्ग् फ्रम् यस्टर्डे, फ्रम् टुमारो, or from some day in the past or from some day in the future, is it not? So adhya arabhya is a one prayoga, so that can be in whatever manner in the past va, in the future va, time to denote the time, we can say shvaha arabhya, from tomorrow. Shyaha arabhya, from yesterday. So yatra shyaha arabhya asti tatra we know bhutakala kriyapadam bhavati, yatra shvaha arabhya iti asti tatra bhavishyatkala kriyapadam bhavati, yatra adya arabhya asti tatra vartamanakala kriyapadam bhavati. Atra pashyatu adya arabhya pratidinam patatu, from today, starting from today, pratidinam patatu, ara lotlaka pratidinam patatu madha vadati putraka chimadati shvaha arabhya patishyami. Shvaha, shvaha is we all know tomorrow, so shvaha arabhya patishyami. Then she asks, madha asks, yogasana kakshya kada arabhya bhavishyati, starting from which date yogasana kakshya bhavishyati. Putraha bhavati vadati parashvaka arabhya, day after tomorrow, parashvaka arabhya bhavishyati. So parashvaka is someday in future, so bhavishyati. Praparashvaka arabhya, praparashvaka arabhya, so day after tomorrow. Ahamapi yogasana kakshyam agamishyami. Atra pashyatu. Matulasya patram agadamba. From uncle, any letter is there, agadam came. Mata vadati. Naiva boho aham parakhyaka, from day before yesterday. Day before yesterday, arabhya. Tasya pratiksham. Patrasya pratiksham, pratiksham awaiting, pratiksham kritavati. Atra pashyatu bhutakala kritanta bhutakala prayogaka kritavati parantu na agatam, it has not come. Agatam, let us not idanim chintayamaha, different vyakarana amshakasti. So adhya arabhya avagachanti kila sarve. So this is adhya arabhya, from today, from yesterday. So arabhya is the padam you are adding, whether today, yesterday, that corresponding padam, then with that arabhya iti yojitam asti uttama. So adhyatana, shastana, swastana, పూర్వతన, ఇదానీంతన, అద్యతన, టుడేస్, హ్యస్తన, యెస్టర్డేస్, స్వస్తన, టుమారోస్, పూర్వతన, ఓల్డెన్ డేస్, ఇదానీంతన, నవ డేస్. సో అద్యతన, హ్యస్తన, స్వస్తన, అద్యతన, ష, ష, షః. ఓన్లీ ఫర్ అద్య విసర్గ ఇస్ నాట్ దేర్. For Kheka and Shvaka, Visarga is there. So the Visarga, due to Sandhi, it becomes Sakaraka, Hyastana, Swastana, Purvatana, Idanintana. Priya Begini.
Amode.
Bhavati Eva Patatu.
Adhyatana Pariksha Katam Asit. అద్యతన దిన పత్రికాం పఠితవాన్ వా, హస్తన పత్రికాం, హస్తన, ఓకే, హస్తన పత్రిక కుత్ర అస్తి, హస్తన కార్యక్రమ కథం అభవత్, श्वस्तनकार्य किम् इति भवान् चिन्तितवान् वा? श्वः वयं तिरुपति गमिष्यामः, अतः श्वस्तनदिनपत्रिका मां प्रेषयतु. पूर्वतनभारतदेशे महति प्रवृत्तिः आसीत्. पूर्वतनजनाः अस्माकं देशस्य स्वातन्त्र्यार्थ महन्तः त्यागं कृतवन्तः.
स्वातन्त्रार्थं महन्तं त्यागं कृतवन्तः.
इदानीन्तन छात्राः बहून् शास्त्रान् पठन्ति. इदानीन्तन विश्वे कोविड्
विषाणु इस् वैरस्, सो विषाणोः पीटनं भवति. उत्तमं, वेरि वेरि वेल् प्रोनौन्स्ड्, गुड्, सम्यक्, धन्यवादः. सो अद्यतन यस्टर्डे टुडेस् अद्यतनपरीक्षा टुडेस् एक्साम् अद्यतनदिनपत्रिका टुडेस् डैलि पेपर् टुडेस् पेपर् ह्यस्तनपत्रिकां यस्टर्डेस् पत्रिका यस्टर्डेस् पत्रिका पत्रिकां कुत्र पत्रिका कुत्र अस्ति नाट् पत्रिकां पत्रिका कुत्र अस्ति ह्यस्तनकार्यक्रमः यस्टर्डेस् प्रोग्राम् yesterday's program kadam abhavat. So here also then swastana karyam kim iti bhavan chintitavan va.
Mahodaya,
yes,
adyatana dina patrikam, why is it in a single sentence? Any reason for that?
No, it has to be in single sentence. So dina patrikam samasta padam, samasaka asti. अद्यतनदिनस्य पत्रिका, सो अद्यतन इस् वन् पदं, दिनपत्रिकाम् इस् द्विपदम् अस्ति, दिनस्य पत्रिकां षष्टि तत्पुरुषक, दिनपत्रिकां पठितवान् वा? टुडेस् डैलि न्यूस् पेपर्, दिनपत्रिका इस् डैलि पेपर्, अद्यतन इस् टुडेस्, टुडेस् डैलि न्यूस् पेपर्, same in one form only, in one word only, it will because it is a samasta padam. Samasaka itukte padasya yojanam, padasya subandha padayoho yojanam yada bhavati tad samasaka. Purvam subandha padam asti, anantaram subandha padam asti, when you add padayoho samyogaha bhavati, द्विपदं वा पदद्वयं वा आर् बहूनि पदानि वा तत्र सन्ति वाक्ये, यु केन् आड् टुगेदर्. फार् वन् सिम्पल् एक्साम्पल् ऐ टेल् यु, सीतायाः पतिः सीतायाः इस् षष्टि एकवचनं, सीतास् अपास्ट्रफि अस्ति, सो सीतायाः पतिः, सीतास् हस्बेण्ड्. If you add together, it becomes a new Subandha Padam. New Subandha Padam, that is new noun it becomes. Two nouns are there, Sitayaha Patihi. So, Tatra Sitayaha Patihi Yojanena Sita Patihi Iti Bhavati. Sita Patihi, it will denote, whom it will denote? It will denote Ramaha. So, Sita Patihi. So, Samasta Padam. अत्र समासः अस्ति, अतः अद्यतनदिनपत्रिका आर् अद्यतनपत्रिका, दिनपत्रिका ऐ हव् एडेड् बिकास् दिनस्य पत्रिका दिनपत्रिका, सो अद्यतनदिनपत्रिका. अवगच्छति वा? Due to samasaka, yes, it remains as one single word.
Garam is very common. This is very common in denoting relations mostly, right?
No, no. Samasaka subandha padayana padayoha bhavati. When there is one compound, idhi vadamaha chet, angila madhye compound idhi asti chila. Compound word. And where two or more words are added. In Sanskrit literature, as many as 32 padam. Dvatrimshat padani padanam yojanam asti. So there are 32 words, and now the 32 words are joined together and made one word. That is the vaisishtyam of Sanskritam. So adhyatana dinapatrika. Hestana patrika kutra asti. Hestana karyakramaga. Swastana karyam kim. Swastana karyam kim iti bhavan chintitavan va. Shvaka vayam tirupatim gamishyamaka. Ataka swastana patrika ma preshayatu. So the janaka vadati, the newspaper boy. Don't put tomorrow's paper, because we are going tomorrow for Tirupati, so don't put the paper tomorrow. So, Purvatana Bharata Deshe Mahati Pravrittihi Asit. There was a lot of improvement. Purvatana Bharata Deshe. The olden days, Bharata Deshe Mahati Pravrittihi. Pravrittihi is Strilinga Padam. Ataka Mahati is Visheshanam. That is also in Strilinga Padam. Mahati Pravrittihi, Vardhanam, so development. Pravrittihi Asit. Purvatana Janaha. Purvatana Janaha is our forefathers. Asmakam Deshasya Swatantrartam Mahantam Tyagam Kridavantaka. Mahan Tyagaka Mahantam Tyagam Kridavantaka. Idanintana Chatraha. Idanintana Chatraha Bahun Shatran Patanti. The students of present day are today's students. Bahun Shatran. Binna Binna Shatran Patanti. Idanintana Vishwe. In today's world, COVID Vishanoho Pidanam Bhavati. There is a Pidanam of COVID Vishanu. Vishanu is virus. COVID virus Pidanam Bhavati. Effect is there. So, Adhyatana, Hestana.
Purvatana, I think it's, you know, in Hindi, Puratan and, is there, right? I think it came from Purvatana only, right?
Ancestors. Yeah, ancestors. Purvatana. Puratanam is different. Puratanam is old. Puratanam, Nutanam. Puratanam, Vastram. The old cloth. Nutanam. Nutanam, Puratanam is different. Nutanam, Puratanam, that is opposites. Puratanam is different. Purvatana is different. Purvatana. Purvatana. Olden days. Bharatam, olden days, Janaha. Something like that. Idanimtana nowadays. Idanimtana Bharata Deshe. Or Idanimtana Chatraha. Or Idanimtana Vishve. In the world. In present present day's world. You will say no. Present day's world. COVID Vishanoho Pidanam Bhavati. Avagachanti va? Kopi Sandeha Asti va? Today's, yesterday's. That days, olden days, nowadays, we will say, no, same thing. Adhyatana, Hyastana, Swatana, Purvatana, Idanimtana. Sandeha asti chet, prichatu, no chet, sameha jataha.
Jata, I think you created this 10th sentence separately for us, no? Recently?
No. All these sentences I have created.
Because COVID is there.
COVID is there because today's major fight in the whole world is happening, you know, against COVID. So that I have. Okay.
Mahoday, I got one basic doubt. Can I ask?
Yeah, please. Yeah, please.
Say, from A up to Aha, I understand. Then these five vargas, ka, cha, ta, ta, pa, I understand. Why this is separation of avargiya vyanjanam, yara, lava? Is there any reason for that?
I'll put the vyakyanam or artha in the because there is no it takes a lot of time to explain.
Okay.
Definitely for each and everything reason is there. Whatever is done by Maharshi Panini, there is definitely some reason is there. I'll explain the reason through message in the WhatsApp, Ganesh. Okay.
Dhanyasmi Mahoday.
I think it is same as the local languages, no? Avargiya Vyanjana. It is in Tamil also same and Kannada also same and the same thing in Avargiya Vyanjana.
Tamil it is there. Yaralava, Idainam, Vallinam, Mellinam is there. Three inam is there. Idainam. Uttam. Okay, Sunday Astiva. Now what we are left with, we are not able to complete. Gata Agami. Gata is past. Agami is coming. Past month, coming month. We'll say no. Gata. Gata Mase. Agami Mase. Gata Varshe. Agami Varshe. So Gata Agami. Katam Bhavati. Anantaram. This is very, very important. Sma. So when you put Sma along with the Kriya, Vartamana, it goes only with the Vartamana Kriya Padam. After the Vartamana Kriya Padam, if you put Sma, it gives the past. Okay. We will see it in the next class. Okay. I think with that, so two things we have not able to finish, Gata, Agami, and Sma. These two we will take it in the next class. Okay. Shanti Mantra Muktva, Atra Samapayamaha. Om Sarve Bhavantu Sukhinah, Sarve Sattu Niramayah, Sarve Bhadrani Pashyantu, Ma Kaschit Dukkhabhav Bhavet. Om Shanti Shanti Shanti. Shubharatrihi. Dhanyavadaha.
Dhanyavadaha.
WhatsApp
group.
Huh?
Mahoday?
Yes.
I think I'm not part of the WhatsApp group.
Krishna Mahoday, wa?
Yes.
What is your number?
Shall I send it to you in the chat?
Put it in the chat. Because before closing this, in this class chat,
Yes. I'm missing that on a lot of things because of that.
What is the country code? It is 91, huh?
91 only, correct.
Oh, 91, I can answer. 91-99-64-381-779. Okay.
Yes.
I'll join you in the Gagana. Okay.
Thank you. Dhanyavad.
Dhanyavad.